इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। ब्राजीलदेशस्य रियो डी जेनेरो नगरे ब्रिक्स शिखर सम्मेलने लीडर्स डिक्लरेशन इति महत्वपूर्ण पदक्षेपः समुत्थापितः। पहलगाम इति क्षेत्रे आततायिभिः दुरापादित कुकर्मस्य च कठोरतम रूपेण निन्दा कृता। भयोत्पादकानां सीमापारगमनम्, आततायिनां वित्तपोषणं, तेभ्यः सुरक्षित आश्रयस्थानानि दानादीनां च निन्दां कुर्वन्तः ब्रिक्स नेतारः आतंकवादं विरुध्य स्वप्रतिबद्धतां पुनः दृढीकृतवन्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भयोत्पादकान् विरुध्य प्रतिबन्धान् विधायितुं संकोचः न भवेदिति। सः अवदत् यत् आतंकपीडितानां समर्थकानां च तुलना समानरूपेण कर्तुं न शक्यते। ब्राजीलदेशे ब्रिक्स शिखर सम्मेलने शान्ति सुरक्षा विषयकं सत्रम् अभिसम्बोधयन् श्रीमोदी अवदत् यत् भयोत्पादनम् अद्यत्वे मानवतायै गभीर प्रतिरोधरूपेण उद्भूतमस्तीति। पहलगामेति प्रकरणे भारतस्य आत्मा, अस्मिता, सम्मानञ्च आक्रमितमिति प्रधानमन्त्री अवदत्। यदि कश्चन देशः प्रत्यक्षतः अप्रत्यक्षतया वा भयोत्पादनस्य समर्थनं करोति तर्हि तस्य मूल्यं तेन दातव्यं भविष्यतीत्यपि प्रधानमन्त्रिणा प्रतिपादितम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना बहुध्रुवीय सर्वसमावेशक विश्वव्यवस्थायै दृढः प्रस्तावः कृतः। ब्रिक्स शिखर सम्मेलने प्रधानमन्त्री उक्तवान् यत् वैश्विक संस्थासु सर्वसमावेशक परिष्काराः समारभणीयाः इति। सः अवदत् यत् एतादृशाः उपायाः न केवलं प्रतीकात्मकानि भवेयुः, अपितु तेषां वास्तविक प्रभावोऽपि दृश्येदिति। सः शासन संरचनासु, मतदानाधिकारेषु, नेतृत्वपदेषु च परिवर्तनस्य समर्थनम् अकरोत्। सप्तदशे ब्रिक्स शिखर सम्मेलने मलेशिया देशस्य समकक्षीयेण अनवर इब्राहिम इत्यनेन सह अद्य प्रधानमन्त्री नरेन्द्र मोदी मेलनम् अकरोत्। उभय नेतृभ्यां रक्षा, आतंकवाद निरोधः, शिक्षा, व्यापार निवेश, औषध निर्माणादीनां विषये भारत मलेशिया देशयोः समग्र सामरिक सहभागित्वम् इत्यादीनां विविध क्षेत्राणां प्रगतिः समीक्षिता। प्रधानमन्त्री नरेन्द्रमोदी अद्य बहुपक्षवादस्य सुदृढीकरणमिति, आर्थिक वित्तीय कार्याणि तथा कृत्रिम बुद्धिमत्तेति विषये आउटरीच 3 इति सत्रे भागम् अगृह्णात्। अस्मिन् ब्रिक्स शिखर सम्मेलने ब्रिक्स सदस्यैः सहभागिभिः आउटरीच इत्यत्र आमन्त्रितैश्च सह कृते स्वकीये भाषणे श्रीमोदी वैश्विक सहयोगस्य, बहुध्रुवीय विश्वस्य च उत्प्रेरकरूपेण ब्रिक्स इत्यतस्मिन् अवधानं दत्तवान्। प्रधानमन्त्री कृषि, जैव प्रौद्योगिकी, डिजिटल शिक्षादि विषयेष् भारतस्य उपक्रमान् अधोरेखितवान्। विदेशमन्त्री डॉ एस जयशंकर ब्राजीलदेशे ब्रिक्स शिखर सम्मेलने सहैव रसिया देशस्य विदेशमन्त्रिणा सर्गे लावरोव इत्यनेन सहापि मिलितवान्। सामाजिक प्रसार माध्यमे डॉ जयशंकर अवदत् यत् तौ द्विपाक्षिक सहकरणं, पश्चिम एशिया ब्रिक्स SCO चेत्यादिषु विषयेषु चर्चां कृतवन्तौ। अनेनैव सह विदेश कार्यमन्त्री अन्यैः वैदेशिक वरिष्ठ नेतृभिः सहापि मिलितवान्। सुरीनामदेशस्य संसदा ह्यः दक्षिणामेरिकादेशस्य प्रथमा महिला राष्ट्रपतिरूपेण जेनिफर सिमोन्स इतीयं निर्वाचिता। कठोरसुरक्षाव्यवस्थायां 5,600+ तीर्थयात्रिकाणाम् अन्यः समूहः अर्थात् जम्मूतः 6 समूहः भगवतीनगरयात्रीनिवासस्य आधारशिबिरात् अमरनाथगुहातीर्थं प्रति प्रस्थितः। संयुक्तराज्यामेरिकादेशस्य टेक्सास प्रदेशे विनाशकारी आकस्मिक जलप्लावनेन मृतकाणां संख्या 80 यावत् वर्धितास्ति, येषु 28 बालाः अपि सन्ति। अन्ते क्रीडावार्तायां क्रिकेट क्रीडा। बर्मिंघम नगरस्य एजवॉस्टन क्रीडांगणे एंडरसन टेंडुलकर ट्रॉफीत्यस्य निकषस्पर्धायाः द्वितीये क्रिकेट क्रीडायाम् आतिथेय इंग्लैण्डदेशस्योपरि भारतम् ऐतिहासिकं 37+ धावनांकैः विजयम् अधिगतम् भारतेन अधिगतम्। श्रृंखलायाम् एकैकांकाभ्याम् उभे दले समे स्तः इति वार्ताः।